कलशस्य मुखे विष्णुः कण्ठे रुद्रः समाश्रितः मूले तस्य स्थितो ब्रह्मा मध्ये मातृगणाः स्मृताः कुक्षौ तु सागराः सर्वे सप्तद्वीपा वसुन्धरा ऋग्वेदोऽथ यजुर्वेदः सामवेदो यथर्वणाः अङ्गैश्च सहिताः सर्वे कलशं तु समाश्रिताः अत्र गायत्री सावित्री शान्तिः पुष्टिकरी तथा त्वयि तिष्ठान्ति भूतानि त्वयि प्राणाः प्रतिष्ठिताः शिवः स्वयं त्वमेवासि विष्णुस्त्वं च प्रजापतिः आदित्या वसवो रुद्राः विश्वे देवाः सपैतृकाः त्वयि तिष्ठान्ति सर्वेऽपि यतः कामफलप्रदाः त्वत्प्रसादादिमां पूजां कर्तुं मीहे जलोद्भव सान्निध्यं कुरु मे देव प्रसन्नो भव सर्वदा।